नरबाणम् वृषभम् मन्द्रजिह्वम् बृहस्पतिम् वर्धजानव्यमर्कैः गाथान्यः सुरुचोजस्य देवा शृण्वन्ति नवमानस्य वर्ताः तमृत्विधा उपवाचः सचन्ते सर्गो न यो देवयतामसर्जे बृहस्पतिः सह्यञ्जो वरांसि बिभ्रभवत्सभृते मातरिष्वा उपस्तुतिम् नमस उद्यतिम् च श्लोकैयम् सत्सविते बप्रबाहु अस्य क्रत्वा हन्यो ओजो अस्ति मृगो न भीमो अरक्षसस्तु भीष्मान् अस्य श्लोको दिबीजते पृथिव्यामत्यो नजम् सद्यक्षभृद्विचेताः मृगाडान्न हेतयोजन्ति चेमा बृहस्पतेरहि मायाम् अभिद्योन ये त्वा देवोऽश्रिकम् मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः न दोढ्ये अनुददासि वामम् बृहस्पते च यस इत्पिजारुम् सुप्रैतुः सोऽजवसो न पन्था दुर्निजन्तः परिप्रेतो न मित्रः अनर्वाणो अभिजे चक्षते नोऽपि व्रता अपोर्णवन्तो अस्थुः संयंस्तु भोवनजो नयन्ति समुद्रन्न स्रवतो रोधचक्राः स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्राः एवामहस्तु विजातस्तु विष्मान् बृहस्पतिर्वृषभोधाजिदेवः स नस्तुतो भीरवद्धातु गोमद्विद्यामेषम् व्रजनम् जीरदानम्